एषा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य केपी शर्मा ओली भाषते नेपालस्य संघीय लोकतान्त्रिक गणतन्त्रम् कोऽपि अपहर्तुम् न शक्नोति। नेकपा दलेन गतदिने काष्ठमण्डपे आयोजिताम् जनसभाम् सम्बोधयन् प्रधानमन्त्री ओली अकथयत् नेपाली जनतायम् उद्भूतयो जागरणस्य चेतनायाश्च कारणेन लोकतन्त्रम् सर्वदैव सुरक्षितमस्ति। प्रधानमन्त्री ओली अवोचत् राष्ट्रस्य समृद्धये विकासाय च सर्वकारः क्रियाशीलो वर्तते। वर्षत्रयस्य अवधौ विकास निर्माणे क्षेत्रे उल्लिख्य प्रगतिश्च सम्भूता अस्ति। प्रधानमन्त्री ओली आत्मना विहित नेतृत्वम् दलमेव आधिकारिकम् नेकपाल कम्युनिष्ट पार्टी नेकपा दलम् अस्तीति ब्रुवन् कार्यकर्तन् भ्रमम् न धर्तुम् अनुरुणत्। प्रधानमन्त्री ओली दलस्य नहि आभ्यन्तर बहुमतल्पमतयो परम् जनताया समर्थनस्य आधारित दलस्य आधिकारिकता निर्धार्यतेति समस्पष्टयत्। कार्यक्रमे उप प्रधानमन्त्री ईश्वर पोखरेलः राष्ट्रस्य स्थायित्वाय समृद्धये च आत्मनां यां कामपि प्रतिकूलतां प्रतिकर्तुं तत्परता स्थिति अवदत्। उप प्रधानमन्त्री पोखरेलः आत्मनां युद्धं राष्ट्रं अराजकताम् अस्थिरतां च प्रति नेतुम् इच्छुकानां जनानां विरूद्धे स्थिति अब्रवीत्। सभायां गृहमन्त्री रामबहादुर थापा दलाध्यक्षस्य प्रधानमन्त्रिणश्च राष्ट्रपतेश्च षड्यन्त्रपूर्वकं निष्कासनापेक्षाया कारणेन पश्चात्तन राजनीतिक घटनाक्रम विकसितो स्थिति समस्पष्टयत्। गृहमन्त्री थापा अगदत् आन्दोलनस्य नाम्नि विहितान् विधि विपरीत गतिविधि नियन्तुम् सर्वकार क्षमो वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समिति सदस्य सत्यनारायण मण्डल अकथयत् दलस्य कचिन् नेतृणाम् लोभस्वार्थयो कारणेन वर्धितात् राजनीतिक संकटात् देशाय समाधानम् दातुम् निर्वाचनस्य विकल्पो न विद्यते। राष्ट्रपतिना विद्यादेवी भण्डारिणा एतत् विक्रमाब्धिः विलोपितानां व्यक्तीनाम् अनुसन्धान सत्यनिरूपण मेलायोग तृतीय संशोधनाध्यादेश क्रियान्वितो वर्तते। राष्ट्रपतिना भण्डारिणा नेपालस्य संविधानस्य अनुसारेण मन्त्री परिषद परामर्शे यः अध्यादेशोऽयं क्रियान्वित इति राष्ट्रपति कार्यालयस्य सहायक प्रवक्ता केशव प्रसाद घिमिरे विज्ञप्तिर्माध्यमेन अज्ञापयत्। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठे प्रतिनिधि सभाया विघटनस्य विरूद्धे पञ्जीकारितानाम् आदेशाभियाचन निवेदनानां श्रवणे ह्योऽपि सर्वकारीय अधिवक्तृभिः विमर्शनम् विहितम्। ह्यः सर्वकारीय पक्षतो विघटनस्य रक्षण विदधान सह न्यायाधिवक्तारा संजीव राज रेग्मी लोकराज पराजुली खेमराज गेवाली च विमर्शनम् अकुर्वन्। विमर्शने सर्वकारीय अधिवक्तारः संसदीय व्यवस्थायां संविधानेन निषिद्धै विषयर्विना प्रधानमन्त्रिणी संसद विघटनस्य अधिकारो भवति इति तर्कम् उपस्थापयन्। सर्वोच्च न्यायालय सांविधानिक निकायनाम् नवनियुक्त प्रमुखेभ्य पदाधिकारीभ्यश्च कार्याणि विधातुम् निषेधनम् अभियाच्य पञ्जीकारिते आदेशाभियाचन निवेदने विपक्षिभ्यो लिखितोत्तरम् अभियाचितमस्ति। न्यायाधीशस्य कुमार रेग्मण एकल न्यायपीठेन ह्यः सांविधानिक निकायसु विहिताय नियुक्तिर्विषये सर्वकारात् पञ्चदश दिनानाम् अभ्यन्तरे कारणसहितम् लिखितोत्तरम् अभियाचितम् वर्तते। गत बुधवासरे पदगोपनीयतायै गृहीत शपथेभ्य सांविधानिक निकायनाम् प्रमुखेभ्य पदाधिकारीभ्यश्च कार्याणि विधातुम् निषेधनस्य अभियाचनया वरिष्ठाधिवक्त्रा दिनेश त्रिपाठिना सर्वोच्च न्यायालये आदेशाभियाचन निवेदनम् पञ्जीकारितम् आसीत्। एवमेव सर्वोच्च न्यायालयः सभामुखेन अग्निप्रसाद सापकोटा भिदेन सांविधानिक निकायसु विहितानाम् नियुक्तिनाम् निरसनम् अभियाच्य आदेशाभियाचन निवेदनम् पञ्जीकारितम् वर्तते। आदेशाभियाचन निवेदने राष्ट्रपति प्रधानमन्त्री राष्ट्रियसभा अध्यक्ष प्रधान न्यायाधीश सांविधानिक परिषद सचिव मुख्य सचिवश्चेति व्यक्त विपक्षणकारिता सन्ति। सभामुखस्य सापकोटा भिदस्य आदेशाभियाचन निवेदनस्य श्रवणं सो रविवासराय निर्धारितमस्ति। सभामुख अग्निप्रसाद सापकोटा देश जनता हिते संविधानेन प्रदत्तान् अधिकारान् उपयुज्य विधि प्रक्रियाश्च अनुसारेण आत्मना अग्रे प्रवर्ध्यते इति कथयति। सिंहप्रसादवर्तिनी संघीय संसद सचिवालय ह्यः पत्रकार मेलनम् आयोज्य सभामुख सापकोटा निरन्तरं संविधानस्य उल्लङ्घनस्य घटना जायमाना सन्ति इत्यतः सांविधानिक व्यवस्थाय अनुसारेण आत्मना संविधानस्य रक्षायै न्यायालय गन्तव्यभूत इति स्पष्टीकृतवान्। नेपाली कांग्रेस दलेन प्रतिनिधिसभाया विघटनस्य विरूद्धे विहितस्य प्रदर्शनक्रमे जनताया दुःखानुभवनत्वेन पिधानायोजनकार्ये असन्नद्धताय अनुरुद्धम् वर्तते। दल प्रवक्त्रा विश्वप्रकाश शर्मणा ह्यो विज्ञप्तिम् प्रकाश्य प्रतिनिधिसभाया विघटनस्य विरूद्धे सन्नद्धानि सर्वाणि दलानि संस्थाश्च पिधानस्य आन्दोलनम् न विधातुम् अनुरुद्धा सन्ति। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल कथयती नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य नेतृत्वस्य सर्वकारण जनतया दत्तम बहुमतम रक्षितुम सक्तम नास्ति। पाल्पा जनपदस्य रामपुरे ह्यो नेपाल प्रेस युनियन संघेन आयोजित पत्रकार मेलन कार्यक्रमे वरिष्ठ नेता पौडेल प्रतिनिधि सभाया विघटनेन देशे सातिशयम विपुला विषम परिस्थिति सृष्टा जनतायाम नैराश्यम च व्यापृतमिति विचारम व्यक्तवान्। नेपाले कोरोना विषाणु विरोधी प्रथम चरण टीकाकरण अभियानम अद्य पूर्णम भवतीति स्वास्थ्य जनसंख्या मन्त्रालय ज्ञापयति। गत दिवसम यावत् सप्तसप्तत्याम जनपदेषु लक्ष्य एकषष्ट्याम सहस्रेषु षडशीत्यधिक चतुशते च जनेषु टीकाकरण विहितमिति मन्त्रालय ज्ञापयति। अत्रान्तरे ह्य चतुर्विंशति घण्टानम अवधौ आराष्टम द्वासप्तत्यधिक शतद्वयम् जना कोरोना संक्रमणात् स्वस्था अभवन्। स्वास्थ्य जनसंख्या मन्त्रालयेन प्रदत्तस्य ज्ञापनसनुसारेण ह्यस्तनावधि संक्रमणात् प्राप्त स्वास्थ्य लाभानां जनानां अंकमानः प्रतिशतं 0.5 वर्तते। यः काष्ठमण्डु उपत्यकायाम् 58% आराष्टम् 75% जनेषु कोरोना विषाणु संक्रमणं पुष्टीभूतं वर्तते। एवञ्च पूर्वेद्यौ अतिरिक्तं जनद्वयं कोरोना संक्रमणस्य कारणेन मृतम् इति स्वास्थ्य मन्त्रालयेन ज्ञापितं वर्तते। सुदूर पश्चिम कर्णाली प्रदेश उच्च पर्वतीयेषु अछाम बझाङ डोटी रोल्पा बैतडी डलडा पर्वतीयेषु जनपदेषु बृहस्पति वासरस्य रात्रितैव हिमपातेन सह वृष्टा शैत्यम वर्धितमस्ति। हिमपातनम् अनु वर्धितस्य शैत्यस्य कारणेन पर्वतीयेषु उच्च हिमालयेषु च जनपदेषु जनजीवनं प्रभावितं सदपि हिमपात खाद्यान्न कृषि अनुकूल भवतीति निगद्य कृषकाः प्रसन्नाः सन्ति। हिमालय क्षेत्रे हिमपातेन वरितस्य शैत्यस्य कारणेन रसुवा जनपदस्य जनजीवनं प्रभावितं वर्तते। हिमपातेन गोसाईकुण्ड धार्मिक मार्गस्य चन्दनबारी ठूलो स्याफ्रु स्थानस्य गर्दागाङ लाङटाङ नाकथली चेती मानव बसतीनां जनजीवनं विशेषेण प्रभावितमस्ति। काष्ठमण्ड पश्चात् तारकेश्वर नगरपालिकायां दृष्टं बर्ड फ्लू पक्षिरोगस्य संक्रमणं नियन्त्रितं वर्तते।